ओम नमो भगवते वासुदेवाय। अथ त्रयोविंशोऽध्यायः। श्री शुक उवाच, अनो सभानरश्चक्षुः परोक्षश्च त्रयः सुताः। सभानरात् कालनरः सृञ्जयस्तत्सुतस्ततः। जन्मेजयस्तस्य पुत्रो महाशीलो महामनाः। उशीनरस्तितिक्षुश्च महामनसात्मजौ। शिबिर्वनः शमिर्दक्षश्चत्वारोऽशीनरात्मजाः। वृषादर्भ सुवीरश्च मद्रः कैकेय आत्मजाः। शिबेश्चत्वार एवासन् स्थितिक्षोश्च ऋषद्रथः। ततो हेमोऽथ सुतपा बलिः सुतपसोऽभवत्। अङ्गवङ्गकलिङ्गाद्याः सुम्हपुण्ड्रान्ध्रसंहिताः। जज्ञिरे दीर्घतमसो बले क्षेत्रे महीक्षितः। चक्रुः स्वनाम्ना विषयान् सडिमान् प्राच्यकांश्च ते। खनपानोऽङ्गतो जज्ञे तस्माद्दिविरथस्ततः। सुतो धर्मरथो यस्य जज्ञे चित्ररथो प्रजाः। रोमपादैतिख्यातस्तस्मै दशरथः सखा। शान्तां स्वकन्यां प्रायच्छत् ऋष्यशृङ्ग उवाहताम्। देवे वर्षति यं रामा आनिन्निर्हरिणीसुतम्। नाट्यसङ्गीतवादित्रैर्विभ्रमालिङ्गनार्हणैः। सतुराज्ञोनपत्यस्य निरूप्येष्टिं मरुत्वतः। प्रजामदात् दशरथो येन लेभे प्रजाः प्रजाः। चतुरङ्गो रोमपादात् पृथुलाक्षस्तु तत्सुतः। बृहद्रथो बृहत्कर्मा बृहद्भानुश्च तत्सुताः। आद्याद्बृहन्मनास्तस्माज्जयद्रथ उदाहृतः। विजयस्तस्य सम्भूत्यां ततो धृतिरजायत। ततो धृतव्रतस्तस्य सत्कर्माधिरथस्ततः। योऽसौ गङ्गातटे क्रीडन् मञ्जूषान्तर्गतं शिशुम्। कुन्त्यापविद्धं कानेन मनपत्योऽकरोत् सुतम्। वृषसेनः सुतस्तस्य कर्णस्य जगतीपतेः। द्रुह्योश्च तनयो बभ्रुः सेतुस्तस्यात्मजस्ततः। आरब्धस्तस्य गान्धारस्तस्य धर्मस्ततो धृतः। धृतस्य दुर्मनास्तस्मात् प्रचेताः प्राचेतसं शतम्। म्लेच्छाधिपतयो भुवन्नुदीचीं दिशमाश्रिताः। तुर्वसोश्च सुतो वन्यैर्भर्गोऽथ भानुमान्। त्रिभानुस्तत्सुतोऽस्यापि करन्धम उदारधीः। मरुतस्तत्सुतो पुत्रः पुत्रं पौरवमन्वभूत्। दुष्यन्तः स पुनर्भेजे स्वं वंशं राज्यकामुकः। ययातेर्ज्येष्ठपुत्रस्य यदोर्वंशं नरर्षभ। वर्णयामि महापुण्यं सर्वपापहरं नृणां। यदोर्वंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यते। यत्रावतीर्णो भगवान् परमात्मा नराकृतिः। यदो सहस्रजित्क्रोष्टा नलो रिपुरिति श्रुताः। चत्वारः सूनवस्तत्र शतजित्प्रथमात्मजः। महाहयो वेणुहयो हैहयश्चेति तत्सुताः। धर्मस्तु हैहयसुतो नेत्रः कुन्ते पिता ततः। सोऽहञ्जिरभवत्कुन्तेर्महिष्मान् भद्रसेनकः। दुर्मदो भद्रसेनस्य धनकः कृतवीर्यसूः। कृताग्निः कृतवर्मा च कृतौजा धनकात्मजाः। अर्जुनः कृतवीर्यस्य सप्तद्वीपेश्वरो भवत्। दत्तात्रेयाद्धरेरंशात् प्राप्तयोगमहागुणः। ननूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः। यज्ञदानतपो योगश्रुतवीर्यजयादिभिः। पञ्चाशीतिसहस्राणि हव्याहतबलः समाः। अनष्टवित्तस्मरणो बुभुजे क्षय्यषड्वसु। तस्य पुत्रसहस्रेषु पञ्चैवोर्वरिता मृधे। जयध्वजः शूरसेनो वृषभो मधुरूर्जितः। जयध्वजात्तालजङ्घस्तस्य पुत्रशतं त्वभूत्। क्षत्रं यत् तालजङ्गाख्यमौर्वतेजोपसंहृतम्। तेषां ज्येष्ठो वीतिहोत्रो वृष्णिः पुत्रो मधो स्मृतः। तस्य पुत्रशतं त्वासीत् वृष्णिज्येष्ठं यतः कुलम्। माधवा वृष्णयो राजन् यादवाश्चेति संहिताः। यदुपुत्रस्य च क्रोष्टोः पुत्रो वृजिनवांस्ततः। स्वाहिस्ततो रुषे कुर्वै तस्य चित्ररथस्ततः। शशबिन्दुर्महायोगी महाभोजो महानभूत्। चतुर्दशमहारत्नश्चक्रवर्त्यपराजितः। तस्य पत्नीसहस्राणां दशानां सुमहायशाः। दशलक्षसहस्राणि पुत्राणां ताश्वजीजनत्। तेषां तु षट्प्रधानानां पृथुश्रवसात्मजः। धर्मो नामो सनातस्य हयमेदशतस्य याट्। तत्सुतो रुचकस्तस्य पञ्चासन्नात्मजाः शृणु। पुरुजित रुक्मरुक्मेषु पृथुज्यामघ संगिताः ज्यामघस्त्वप्रजोऽप्यन्याम् भार्याम् शैब्यापतिर्भयात् न विन्दच्छत्रुभवनात् भोज्याम् कन्यामहारषीत् रथस्ताम् ताम् निरीक्ष्याः शैब्यापतिममर्षिता केयम् कुहकमत्स्थानम् रथमारोपितेति वै स्नुषा तवेत्यभिहिते स्मयन्ति पतिमब्रवीत् अहम् वन्ध्या सपत्नी च स्नुषा मे युज्यते कथम् जनयिष्यसि यम् राज्ञी तस्येयमुपयुज्यते अन्वमोदन्त तद्विश्वे देवाः पितर एव च शैब्या गर्भमधात् काले कुमारम् सुषुवे शुभम् सविदर्भ इति प्रोक्त उपयेमे स्नुषाम् सतीम् ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् नवमस्कन्धे यदुवंशानुवर्णने त्रयोविंशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम् भोजे रतिः स्यादनपायिनी।